अष्टादशोऽध्यायः अल्पवने त्रयो ग्रामिणो वृक्षफलानि चिन्वन्ति स्म। सुगुरुश्चतुर्विदं पञ्चभ्यशिष्येभ्यो ददत्। षट्पापारत्रौ निर्पधनम् अचोरयन् योगी स्वप्राणेन ब्रह्मणे जुहोति। बलवन्नृपो सद्गुरवे दशधेनु दद्यात्। यः परधनं बलिना दत्ते स पापं करोति। नदीकूले राजसेवका दशसमिद्वृक्षान् अछिन्दन्। कुतो धनिनो धनन्यधनिभ्यो न विदधति। पुण्यकर्माणि कुर्वन् परलोकम् आप्नोति।